इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारत न्यूजीलैंड देशौ ऐतिहासिकं परस्पर लाभप्रदं च मुक्त व्यापार समन्वयं सफलतया सम्पन्नं कृतवन्तौ। ह्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना न्यूजीलैंड देशस्य प्रधानमन्त्रिणा क्रिस्टोफर लक्सन इत्यनेन च सह घोषितम्। श्रीमोदी ह्यः श्रीलक्सन इत्यनेन सह दूरभाषया वार्तालापं कृतवान्। अस्मिन् वर्षे मार्च मासे श्रीलक्सन इत्यस्य भारतयात्रायाः समये वार्तालापस्य आरम्भः अभवत्। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् भारत न्यूजीलैंड देशयोः मध्ये FTA इत्यनेन आगामिषु पञ्चवर्षेषु द्वैपाक्षिक व्यापारं द्विगुणीकर्तुं मञ्चः निर्मितः अस्ति इति। सामाजिकान्तर्जालीये सन्देशे श्रीमोदी अवदत् यत् भारत न्यूजीलैंड देशयोः सहभागित्वं नूतनम् औन्नत्यं प्राप्नुयादिति। सः अवदत् यत् भारतं न्यूजीलैंड देशात् विविधक्षेत्रेषु प्रायः 2,000 कोटिरूप्यकाणां निवेशानां स्वागतं करोति। सामाजिकान्तर्जालीये सन्देशे श्रीलक्सनेन अपि निर्णयस्य प्रशंसा कृता। ह्यः नवदिल्ल्यां वार्ताहरान् सम्बोधयन् केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः अवदत् यत् FTA इत्यनेन कृषकाणाम् उद्यमशीलानां छात्राणां महिलानां नवप्रवर्तकानां च कृते व्यापारस्य निर्माणं कृत्वा विविधाः अवसराः निर्मिताः भविष्यन्ति।
It's our third FTA.
यह फाइव आईज देशों के साथ हमारा तीसरा मुक्त व्यापार समझौता है, ऑस्ट्रेलिया, ब्रिटेन और अब न्यूजीलैंड। हम शीघ्र ही कनाडा के साथ भी टर्म्स ऑफ रेफरेंस पर बातचीत शुरू करने वाले हैं। हम अमेरिका के साथ अपनी बातचीत में पहले से ही एक एडवांस स्टेज पर हैं। ये दुनिया की जियोपॉलिटिक्स में भारत के बढ़ते रणनीतिक महत्व को दिखाता है।
ऑफ इंडिया इन वर्ल्ड जियोपॉलिटिक्स।
श्री गोयलः दृढतया उक्तवान् यत् FTA इतीदं विश्वस्य भूराजनीतेः विषये भारतस्य वर्धमानं सामरिकं महत्त्वं प्रतिबिम्बयति। केन्द्रीय पर्यावरण वन्य ऋतुदशा परिवर्तन मन्त्री भूपेन्द्र यादवः अधोरेखितवान् यत् अरावली क्षेत्रस्य विषये सर्वोच्च न्यायालयस्य निर्णयः अरावली हरित भित्ति परियोजनायाः माध्यमेन एनं क्षेत्रं रक्षणाय सर्वकारस्य बहुविध प्रयासानां स्वीकरणं समर्थनं च करोति। मन्त्रिणा ह्यः नवदिल्ल्यां वार्ताहरान् सम्बोधयन् इदमुक्तम्। सः अवदत् यत् यावत् भारतीय वानिकी अनुसन्धान शिक्षा परिषदा ICFRE इत्यनेन सुस्थिर खननस्य विस्तृत प्रबन्धन योजना निर्मिता न भविष्यति, तावत् नूतन खनन दायित्वं न प्रदीयते। गोवा जिला पंचायत निर्वाचने भाजपा MGP गठबन्धनेन बहुसंख्यायाम् आसनानि विजितम्, यस्य परिणामः ह्यः घोषितः। राज्यस्य 50 जिला पंचायत आसनेषु 30 अपि अधिकानि आसनानि उभौ विजितवन्तौ। कांग्रेस दलेन 10 आसनानि, आपदलेन तथा रिवोल्यूशनरी गोवंस दलेन च एकम् आसनं विजितम्। अवधेयं यत् दिसम्बर 20 दिनांके जाते निर्वाचने 4 स्वतंत्र प्रत्याशिनः अपि विजितवन्तौ। हरियाणा विधानसभाया प्रतिदिनस्य कार्यसमयः 9 होरातः 10 होरा यावत् वर्धितम्। अपि च आपणेषु निजी वाणिज्य संस्थासु कर्मचारिणां कृते 48 होरायाः समग्र साप्ताहिक सीमाम् अवलम्ब्य विधेयकं स्वीकृतम्। महिला क्रिकेट क्रीडायाम् अद्य विशाखापत्तनम् नगरस्य क्रीडांगणे 5 क्रीडाश्रृंखलायाः 2 20-प्रतिविंशति अन्ताराष्ट्रिय क्रीडायां भारतीय महिलादलं श्रीलंका महिलादलं सम्मुखीकरिष्यति। क्रीडायाः आरम्भः सायं 7 भविष्यति इति वार्ताः।